ईश्वर परम कृष्ण सच्चिदानंद विग्रह अनादिरादि गोविंद सर्वकारण कारणम् चिंतामणि प्रकर साध्म सुकल्प विक्षा लक्षावृतेषु सुरभिरभिपालयन्तम् लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानम् गोविन्दमादिपुरुषम् तमहं भजामि वेणुं क्वनन्तमरविन्ददलायताक्षम् बर्हावतं समसितं बुधसुन्दराङ्गम् कन्दर्पकोटिकमनीयविशेषशोभम् गोविन्दमादिपुरुषं तमहं भजामि आलोलचन्द्रकलशाद्वनमाल्यवंशी रत्नाङ्गदं प्रणयकेलिकलाविलासम् श्यामं त्रिभङ्गललितं नियतप्रकाशम् गोविन्दमादिपुरुषं तमहं भजामि अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति आनन्दचिन्मयसदुज्ज्वलविग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि अद्वैतमच्युतमनादिमनन्तरूपम् आद्यं पुराणपुरुषं नवयौवनं च वेदेषु दुर्लभमधुर्लभमात्मभक्तौ गोविन्दमादिपुरुषं तमहं भजामि पन्थास्तु कोटिशतवत्सरसम्प्रगम्यो वायोरथापि मनसो मुनिपुङ्गवानां सोऽप्यस्ति यत्प्रपदसिंहविचिन्त्य तत्त्वे गोविन्दमादिपुरुषं तमहं भजामि एकोऽप्यसौ रचयितुं जगदण्डकोटिं यश्चक्तिरस्ति जगदण्डचयायदन्ताः अण्डान्तरस्य परमाणुचयान्तरस्थं गोविन्दमादिपुरुषं तमहं भजामि यद्भावभावितधियो मनुजस्तथैव सम्प्राप्य रूपमहिमासनयानभूषाः सुप्तैर्यमेव निगमप्रथितैस्तुवन्ति गोविन्दमादिपुरुषं तमहं भजामि आनन्दचिन्मयरसप्रतिभाविताभि साधीर्य एव निजरूपतय कलाभि गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहं भजामि प्रेमाञ्जनचुरितभक्तिविलोचनेन सन्तः सदैव हृदयेषु विलोकयन्ति यं श्यामसुन्दरमसिं च गुणस्वरूपं गोविन्दमादिपुरुषं तमहं भजामि रामादिमूर्तिसुकलानियमेन तिष्ठा नानावतारमकरोद्भुवनेषु किन्तु Krishna Swayam Samabhava Paramahumanyo Govindamadi Purusham Tamaham Bhajami Yasya Prabha Prabhavato Jagadanda Koti Koti Svashesha Vasudhadi Vibhuti Bhinnam Tadbrahma Nishkalam Anantamashesha Bhutam Govindamadi Purusham Tamaham Bhajami Maya hi yasya jagadanda shatani sute Traigunya tad visaya veda vitaya mana Sattva valambi parasattva visuddha sattvam Govindamadi Purusham Tamaham Bhajami Ananda Chinmaya Rasatmataya Manasu Yah Praninam Pratipalan Smaratam Upetya Leelayetena Bhuvanani Jayatya Jasram Govindamadi Purusham Tamaham Bhajami Goloka nami nijadhami talechatasya Devi Mahesha Haridhama sute sute su Tete prabhava nishaya vihitasya yena Govindamadi Purusham Tamaham Bhajami Rishi Siti Pralaya Sadhana Shakti Reka Kaye Vayasya Bhuvanani Bibharti Durga Ishanu Rupa Mapiyasya Chachishta Teka Govindamadi Purusham Tamaham Bhajami Iram yathada divikara vishesha yoga Sanjayate nahi chatah pritadasti heto Yah sambhutam apitatha samupaiti karya Govindamadi Purusham Tamaham Bhajami Deepachireva hidashantaramabhyupetya Deepayate vivuttahetu samanadharma Yastada eva hishavishnutayavibhati Govindamadi Purusham Tamaham Bhajami Yah karanarnavajhale bhajatitma yoga Nidramananta jagadanda saroma kupa Adhara shakti mavalambya param swamurti Govindamadi Purusham Tamaham Bhajami Yasyaika nishvasita kala mathavalambya Jeevanti loma vilaja jagadanda natha Vishnur mahansa iha yasya kala viseto Govindamadi Purusham Tamaham Bhajami Bhāsvām yathāsma chakalesu nijesu tejah Priyam kiyat prakatayat yapitadvadatra Brahmāya esha jagadanda vidhāna karta Govindamadi Purusham Tamaham Bhajami Yatpada pallava yugam vinidhaya kumbha Dvandve pranama samaye saganadhi raja Vignan vihantu malamasya jagatrayasya Govindamadi Purusham Tamaham Bhajami Agnirmahi gaganamambu marurdhisascha kalascha thatma manasitthi jagatrayani yasma davanti vihavanti vishanti yamcha govindamadi purusham tamaham bhajami yachaturesha savita sakala grahana raja samasta suramurti rasechate jah yasyagnaya brahmati sambrutakala chatru govindamadi purusham tamaham bhajami dharmota papa nishaya sutaya stapamsi brahmadikita pataga badhayascha jiva yadatta matra vibhava prakata prabhava govindamadi purusham tamaham bhajami yasindra gopa mathavendra mahoswakarma bandhanurupa phalabhajanamasanoti karmani nirdahati kintu cha bhakti bhaja govindamadi purusham tamaham bhajami yam krodha kama sahaja pranayadi bhiti vatsalya moha guru gaurava sevya bhavai sanchintya tasya sadrishinta numapurete govindamadi purusham tamaham bhajam riyah kantah kantah parama purushah kalpataravo bruma bhume sintamani ganamahito yamamrutam kathadanam nanamam gamanam apivamsi priyasakhi chidanandam jyotih paramapi tadaswadyamapicha sayatra kiradhi sravati suradhivyascha sumaha nimesa jhakyo va vrajati nahi yatrapi samaya bhaje sveta dipam samaham iha golokamitiyam vedantaste santah kiti virala chara katipaye Ishvara Parama Krishna Satchidananda Vigraha Anadiradi Govinda Sarva Karana Karanam Chintamani Prakara Sadma Sukalpa Vishcha lakshavritesu suravira vipalayantam lakshmi sahasra shatasambrama sevyamanam govindamadi purusham tamaham bhajami venum kvanantam ravindadalayataksham barhavatam samasitam buddhasundarangam kandalpakotikamaniya visheshasobham govindamadi purusham tamaham bhajami alolachandrakalasadvanamalyavamsi ratnangadam pranayakeli kalavilasam shyamam tribhangalalitam niyata prakasham govindamadi purusham tamaham bhajami అంగాని యస్య సకలేంద్రియ వృత్తిమంతి పశ్యంతి పాంతి కలయంతి చిరంజగంతి ఆనంద చిన్మయ సదుజ్వల విగ్రహస్య గోవిందమాది పురుషం సమహం భజామి. అద్వైతమచ్యుతమనాదిమనంతరూపం ఆద్యం పురాణ పురుషం నవయౌవనం చ వేదేషు దుర్లభమదుర్లభమాత్మభక్తౌ గోవిందమాది పురుషం సమహం భజామి. పంథాస్తు కోటి శతవత్సర సంప్రగమ్యో వాయో రథాపి మనసో ముని పుంగవానా సోప్యస్తి యత్ప్రపదసిన్య విచింత్య తత్వే గోవిందమాది పురుషం సమహం భజామి. ఏకోప్యసౌ రచయితుం జగదండకోటి యశక్తిరస్తి జగదండచయాయదంత అండాంతరస్త పరమాణుచయాంతరస్తం గోవిందమాది పురుషం సమహం భజామి. యద్భావభావిత ధియో మనుజస్తథైవ సంప్రాప్య రూపమహిమాసనయానభూత సూక్తైర్యమేవ నిగమ ప్రతితైకువంతి గోవిందమాది పురుషం సమహం భజామి. ఆనంద చిన్మయ రస ప్రతిభావితాది సాధీర్య ఏవ నిజ రూపతయ కళాది గోలోక ఏవ నివసత్యఖిలాత్మభూతో గోవిందమాది పురుషం సమహం భజామి. ప్రేమాంజనచురితభక్తి విలోచనేన సంతః సదైవ హృదయేషు విలోకయంతి యం శ్యామ సుందరమకించ గుణస్వరూపం గోవిందమాది పురుషం సమహం భజామి. రామాదిమూర్తిషు కళానియమేన తిష్ఠా నానావతారమకరోద్భువనేషు కింతు కృష్ణ స్వయం సమభవః పరమః పుమాన్యో గోవిందమాది పురుషం సమహం భజామి. యస్య ప్రభా ప్రభవతో జగదండకోటి కోటిస్వశేష వసుధాది విభూతి భిన్నం తద్బ్రహ్మ నిష్కలమనంతమశేష భూతం గోవిందమాది పురుషం సమహం భజామి. మాయా హి యస్య జగదండ శతాని సూతే త్రైగుణ్య తద్విషయ వేద వితాయమానా సత్వావలంబి పరసత్వ విశుద్ధ సత్వం గోవిందమాది పురుషం సమహం భజామి. ఆనంద చిన్మయ రసాత్మతయా మనసు యః ప్రాణినాం ప్రతిఫలం స్మరతాం ఉపేత్య లీలాయతేన భువనాని జయత్యజస్రం గోవిందమాది పురుషం సమహం భజామి. గోలోకనామి నిజధామి తలేచకస్య దేవీ మహేశ హరిధామ సుతేషు Tete prabhava nishaya vihitasya yena Govindamadi purusham tamaham bhajami Srishti siti pralaya sadhana shakti reka Kaye vayasya bhuvanani bibharti durga Ichchānurūpamapiyasya ca cittateka Govindamādi purusham tamaham bhajāmi Īram yathāda divikāra viśeṣa yoga Sanjāyate nahi tatah pṛtagasti heto Yah sambhutam api tatha samupaiti karya Govindamadi purusham tamaham bhajami Deepachireva hidashantaram abhyupetya Deepayate vivutahetu samana dharma Yastada eva hicha vishnu taya vibhati Govindamadi purusham tamaham bhajami Yah karanarnavajhale bhajatitma yoga Nidramananta jagadanda saroma kupa Ādhāra shakti mavalambya parām svamūrtim Govindamādi purusham tamaham bhajāmi Yasyaika nishvasita kāla mathāvalambya Jīvanti loma vilajā jagadanda nāthā Vishnur Mahansa Iha Yasya Kala Viseto Govindamadi Purusham Tamaham Bhajami Bhaswam Yathasma Chakaleshu Nijeshu Teja Priyam Kiyat Prakatayat Yapitad Vadatra Brahmāya esha jagadanda vidhāna karta Govindamādi purusham tamaham bhajāmi Yatpāda pallava yugam vinidhāya kumbha Dvandve pranāma samaye saganādhi rājā Vignan vihantu malamasya jagatrayasya Govindamadi purusham tamaham bhajami Agnir mahi gaganamambu marurdhisasya Kalasya thatma manasichi jagatrayani Yasma gavanti vibhavanti vishanti yamcha Govindamadi purusham tamaham bhajami Yachaksuresha savita sakala grahana Raja samasta suramurti rashesha teja Yasyagnaya brahmatitam vrutakala chakro Govindamadi purusham tamaham bhajami Dharmotha papa nishaya sutaya stapamsi Brahmadikita pataga vadhayasya jiva Yaddatta matra vibhava prakata prabhava Govindamadi purusham tamaham bhajami Yasindra gopa mathavendra mahoswa karma Bandhanurupa palabhajana matanoti Karmani nirdahati kintu cha bhakti bhaja Govindamadi purusham tamaham bhajami यम क्रोध काम सहज प्रणयादि भीति वात्सल्य मोह गुरु गौरव सेव्य भावैः संचिन्त्य तस्य सदृशिं तनुमापुरेते गोविन्दमादिपुरुषं तमहं भजामि। श्रियः कान्तः कान्तः परमपुरुषः कल्पतरवो भ्रुमा भूमिश्चिन्तामणिगणमयितोऽयममृतम् कथादानं नरमं गमनमपि वंशि प्रियसखी चिदानन्दं ज्योतिः परमपि तदास्वाद्यमपि च स यत्र चिराजीश्रवती सुरभीर्यश्च सुमः निमेषाध्याख्यो वा व्रजति न हि यत्रापि समय भजे श्वेतदीपं समहम् इह गोलोकमितियम् विदन्तस्ते सन्तः स्थितिविरलचारा कतिपये। ईश्वरः परमा कृष्णा सच्चिदानन्द विग्रह अनादिरादि गोविन्दः सर्वकारणकारणम् चिन्तामणि प्रकरसद्म सुकल्पवृक्ष लक्षावृतेषु सुरभिरभिपालयन्तम् लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानम् गोविन्दमादिपुरुषं तमहं भजामि। वेणुं क्वनन्तमरविन्ददलायताक्षम् बर्हावतं समसितं बुधसुन्दराङ्गम् कन्दर्पकोटिकमनीयविशेषशोभम् गोविन्दमादिपुरुषं तमहं भजामि। आलोलचन्द्रकलशाद्वनमाल्यवंशी रत्नाङ्गदं प्रणयकेलिकलाविलासम् श्यामं त्रिभङ्गललितं नियतप्रकाशम् गोविन्दमादिपुरुषं तमहं भजामि। अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति आनन्दचिन्मयसदुज्ज्वलविग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि। अद्वैतमच्युतमनादिमनन्तरूपम् आद्यं पुराणपुरुषं नवयौवनं च वेदेषु दुर्लभमधुर्लभमात्मभक्तौ गोविन्दमादिपुरुषं तमहं भजामि। पन्थास्तु कोटिशतवत्सरसम्प्रगम्यो वायोरथापि मनसो मुनिपुङ्गवाना सोऽप्यस्ति यत्प्रपदसिंह्य विचिन्त्य तत्त्वे गोविन्दमादिपुरुषं तमहं भजामि। एकोऽप्यसौ रचयितुं जगदण्डकोटिम् यक्षक्तिरस्ति जगदण्डचयायदन्ताः अण्डान्तरस्थ परमाणुचयान्तरस्थम् गोविन्दमादिपुरुषं समहं भजामि यद्भावभावितधियो मनुजस्तथैव सम्प्राप्य रूपमहिमातनयानभूषाः सूक्तैर्यमेव निगमप्रतितैस्तुवन्ति गोविन्दमादिपुरुषं समहं भजामि आनन्दचिन्मयरसप्रतिभाविताभिः साधीर्य एव निजरूपतय कलाभिः गोलोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं समहं भजामि प्रेमाञ्जनचुरितभक्तिविलोचनेन सन्तः सदैव हृदयेषु विलोकयन्ति।